इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्यारभ्य ओडिशाराज्यस्य त्रिदिवसीय यात्रां प्रतियाति, यत्र असौ ओडिशायाः भुवनेश्वरे आरक्षिमहानिदेशकानां आरक्षिमहानिरीक्षकाणां च अखिल भारतीय सम्मेलने भागम् अपि भजिष्यति। ध्यातव्यमस्ति यत् ओडिशाराज्येन प्रथमवारम् एतादृशं सम्मेलनम् आयोज्यते, यत्र समेषां राज्यानां केन्द्रशासित प्रदेशानां च आरक्षिमहानिदेशकाः, केन्द्रीयारक्षितारक्षिबलं, रॉ गुप्तचर विभाग इत्येतेषां प्रमुखाः सम्मिलिताः भविष्यन्ति। श्रीमोदिनं समेत्य केन्द्रीय गृहमन्त्री अमितशाहः, राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः च एतस्मिन् सम्मेलने भागं स्वीकुर्वन्ति। सम्मेलने आन्तरिक आन्तर्जालिक सुरक्षा आतंकवाद सदृशाः विषयाः चर्चायै प्रमुखाः बिन्दवः भविष्यन्ति इति सम्भाव्यते। राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् सशस्त्रबलैः न केवलं भारतस्य राष्ट्रियहितानां रक्षणम् आवश्यकम् अपितु नवीनेभ्यः समाह्वानेभ्यः सज्जं भवेदिति। तमिलनाडोः वेलिङ्गटन् इत्यत्र डिफेंस सर्विस स्टाफ इति महाविद्यालयस्य छात्राधिकारिणः सदस्याञ्च सम्बोधयन्ती राष्ट्रपतिः उक्तवती यत् द्रुतगत्या परिवर्तमाने भूराजनैतिक परिदृश्ये कामपि परिस्थितिं परिहर्तुं सुसज्जिताः भवेम इति। राष्ट्रपतिः बुधवासरात् तमिलनाडुराज्यस्य चतुर्दिवसीय यात्रायां वर्तते। अद्य राष्ट्रपतिः उदग मण्डले नीलगिरि जनपदे राजभवने जनजातीय महिलानां स्वयं सहाय्य समूह सदस्यैः, जनजातीय समुदाय प्रमुखैः सदस्यैः च सह संवादं विधास्यति। तदनु शनिवासरे तमिलनाडोः तिरुवरूर नगरे केन्द्रीय विश्वविद्यालयस्य दीक्षांत समारोहे भागम् अपि ग्रहीष्यति। झारखण्ड मुक्ति मोर्चा दलस्य नेता हेमन्त सोरेनः ह्यः प्रथम चतुर्थवारं मुख्यमन्त्री पदाय शपथवचनं स्वीकृतवान्। राज्यपालः संतोषकुमार गंगवारः रांचीनगरे आयोजिते शपथग्रहण समारोहे हेमन्त सोरेनाय तस्य च मन्त्रिमण्डलाय शपथवचनं प्रदत्तवान्। शपथग्रहण समारोहे हेमन्त सोरेनस्य इण्डी संयुत्याः नेतारः अपि उपस्थिताः आसन्। कांग्रेस दलाध्यक्षः मल्लिकार्जुन खड़गेः, लोकसभायां विपक्षदलनेता राहुल गांधी, पश्चिम बंगालस्य मुख्यमंत्री ममता बनर्जी, पंजाब प्रदेशस्य मुख्यमंत्री भगवंत मान सिंहः, दिल्ल्याः उपमुख्यमंत्री अरविंद केजरीवालः च प्रमुखरूपेण एतस्मिन् समारोहे उपस्थिताः अभवन्। अवधेयं वर्तते यत् संजाते झारखण्ड विधानसभा निर्वाचने झारखण्ड मुक्ति मोर्चा युतया इण्डी संयुत्या एकाशीति विधानसभासनेषु षड्पञ्चाशत् आसनानि विजितानि। महाराष्ट्रस्य कार्यवाहकः मुख्यमन्त्री शिवसेनानेता च एकनाथ सिन्धे, वाजपेयी दलनेता देवेन्द्र फडणवीसः, एनसीपी प्रमुखः अजित पवारः च ह्यः नवदिल्ल्यां केन्द्रीय गृहमन्त्रिणम् अमितशाहं मिलित्वा राज्ये प्रशासनस्य निर्माणस्य विषये चर्चां कृतवन्तः। एतस्यां चर्चायां भाजपेयी दलाध्यक्षः जगत्प्रकाश नड्डाः अपि उपस्थितः आसीत्। श्री एकनाथ शिन्देः पूर्वमेव उक्तवान् यत् असौ राज्ये प्रशासन निर्माण कार्ये बाधां नैव उत्पादयिष्यति, राज्यस्य च अस्य शीर्षपदस्य विषये भाजपेयी दलस्य केन्द्रीय नेतृत्वस्य निर्णयस्य च अनुपालनं करिष्यति इति। भारतं संयुक्त राष्ट्र सुरक्षा परिषदः विस्तारार्थं संयुक्त राष्ट्रस्य सदस्य राष्ट्राणां मध्ये समर्थनं निर्मातुम् अन्यैः परिष्कारोन्मुखैः राष्ट्रैः सह मिलित्वा कार्यं कुर्वदस्ति, यतोहि नवदिल्ल्याः समीपे संयुक्त राष्ट्रस्य सुरक्षा परिषदः स्थायी सदस्यं भवितुं सर्वाणि प्रमाणानि सन्ति यानि समकालिकीं वैश्विक सत्यतां प्रदर्शयन्ति इति। विदेशमन्त्री डॉ एस जयशंकरः ह्यः राज्यसभायाम् एकस्मिन् लिखितोत्तरे एतां वार्तां कथितवान् इति। वार्ताः।